एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। आराश्रम मध्यमतः भीषण वृष्टिः नैरन्तरेण जायमाना स्थिति जलवायु वातावरण विज्ञान विभागस्य जलवायु पूर्वानुमान महाशाखया ज्ञापितमस्ति। काष्ठमण्डप उपत्यका सहितेषु देशस्य प्राय स्थानेषु भीषण वर्षा परिमापिता स्थिति जलवायु वातावरण विभागेन ज्ञापितं वर्तते। महाशाखायाः जलवायुविदः विनु महर्जन इत्यस्याः अनुसारेण सम्प्रति काष्ठमण्डप उपत्यका सहितेषु देशस्य प्राय स्थानेषु वृष्टिः जायमाना वर्तते। श्व रविवासरस्य मध्याह्न कालात् जलवायु वातावरणे सुधार सम्भविष्यति इति महाशाखया ज्ञापितमस्ति। नैरन्तरेण जायमानया भीषण वृष्ट्या देशस्य प्रायः नदीषु जलस्तर आधिक्येन वर्धमानो वर्तते। वृष्ट्या कारणेन आराश्रम जनजीवनम् प्रभावितञ्चास्ति। अत्रान्तरे जलवायु वातावरण विभागेन सावधानताम् अवलम्बितुम् सर्वे अनुरुद्धाः सन्ति। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन कुलेखानी जलविद्युत आयोजनायाः इन्द्र सरोवर हृदय अविरल वृष्टेः कारणेन जलस्य भरणात् सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। प्राधिकरणेन सूचनां प्रकाश्य जलबन्धस्य सुरक्षां विचार्य जलबन्धस्य द्वाराणाम् उद्घाटनस्य स्थितिरपि सम्भवतीत्यतः सावधानतायै अनुरुद्धमस्ति। कुलेखानी स्थानाद् अवरस्तरस्य तटीयजनाः उच्च सावधानतायां स्थातुं निर्दिष्टाः वर्तन्ते। प्रतिकारे संलग्नाः सुरक्षाकर्मिणः स्वयंसेवकाश्च उच्च सावधानतायां स्थातुम् अनुरुद्धा सन्ति इति प्राधिकरणस्य प्रवक्त्रा डाक्टर डिजन भट्टराय इत्यनेन प्रकाशितायां सूचनायाम् उल्लिखितं वर्तते। अविरल वृष्टेः कारणेन सम्भावितं संकटम् आकलय्य नारायणगढ़ मुगलिन मार्गखण्डः रात्रौ पिधीयते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य निर्देशस्यानुसारेण अविरल वृष्टेः कारणेन भूस्खलनस्य सम्भावनया मार्गखण्डोऽसौ रात्रौ पिहितोऽस्ति। अद्य यावत् अस्मिन् मार्गखण्डे सायं सप्तवादनात् प्रातः पञ्चवादनं यावत् यातायात सञ्चालने प्रतिबन्धो विहितोऽस्ति। नेपाल नागरिक उड्डयन प्राधिकरणेन वातावरणस्य प्रतिकूलतायाः कारणेन अद्य प्रातः षड्वादनं यावत् अन्तराणि उड्डयनानि स्थगितीकृतानि सन्ति। प्राधिकरणेन ह्यः सूचनां प्रकाश्य नैरन्तरेण जातया वृष्ट्या आवश्यक प्रकाशस्य न्यूनतायाः कारणेन आन्तरोड्डयनानि स्थगितानि सन्ति इति ज्ञापितमस्ति। चन्द्रागिरी नगरपालिकायाः द्वितीय वडा क्षेत्रस्य नागमन्दिरस्य निकटस्थे स्थले भूस्खलनेन काष्ठमण्डप मुगलिन मार्गखण्डः पूर्णरूपेण अवरुद्धोऽस्ति। गतरात्रौ आसन्न द्वादशवादने भूस्खलनेन उभय पक्षस्य यातायात सेवा पूर्णतः अवरुद्धास्ति। नागढुङ्गा स्थानीय प्रहरी अधिकारिणः प्रहरी सहायक निरीक्षकस्य दीपक बहादुर धानुकस्य अनुसारेण भूस्खलनेन यातायात सेवा पूर्णतः अवरुद्धास्ति। उपत्यकातः बहिर्गन्तुम् कामानि आगन्तुकामानि च सर्वाण्यपि यातायात साधनानि अवरुद्धानि वर्तन्ते। एवमेव दिनद्वयस्य अविरल वर्षाणां कारणेन भूस्खलने सति पृथ्वी राजमार्गस्य अन्तर्गतः तनहु जनपदस्य व्यासनगरपालिकायाः द्वादशवडा क्षेत्रस्य घासीकुवा मार्गखण्डः अवरुद्धोऽस्ति। अद्य प्रातः पादुन द्विवादने दुरापन्नस्य भूस्खलनस्य कारणेन घासीकुवा डुम्रेखण्डः अवरुद्धोऽस्ति इति स्थानीयः सुदीप गफार अज्ञापयत्। एतस्य अनुसारेण पूर्वं शिलाखण्ड मिश्रित पंकजातः पतितः सन् मार्गः पूर्णतः अवरुद्धो वर्तते। प्रधानमन्त्री केपी शर्मा ओली संक्रमणकालिक न्यायस्य निर्णय प्रापणस्य क्रमे सशस्त्र द्वन्द्वकाले सम्भूतायाम् अपराधस्य घटनायां क्षमा प्रदीयते इति प्रतिबद्धतां व्यनक्ति। संयुक्त राष्ट्रसंघस्य 79वीं महासभायां भागं ग्रहणाय न्यूयॉर्क नगरात् बोस्टन नगरं प्राप्तः प्रधानमन्त्री ओली हार्वर्ड विश्वविद्यालये आयोजितं कार्यक्रमं सम्बोधयन् सम्प्रत्येव संसदा पारितीकृतेन संक्रमणकालिक न्याय सम्बद्ध विधेयकेन वैधानिकोपचारेण सह पीडितानां हिताधिकाराणां संरक्षणं करिष्यते इति समस्पष्टयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति एआई नीति नाम्नः राष्ट्रिय कृत्रिम बौद्धिकता नीतेः निर्माणस्य कार्यं जायमानं वर्तते। यहाँ काष्ठमण्डपे आयोजितम कार्यक्रमम सम्बोधयन मन्त्री गुरूङ नेपाले एआई नीतेः प्रयोगे गोपनीयताया पारदर्शिताया उत्तरदेहिताया संस्थापनस्य उद्देश्येन राष्ट्रिय एआई नीतेः निर्माणस्य कार्यं विधीयमानम् अवर्तते। कार्यक्रमे संचार मन्त्री गुरूङ वैद्युताङ्कन युत नेपालस्य संरचनाम् अतिरिक्तम् प्रभावकारिणीम् सम्पादयितुम् राष्ट्रिय सांझालिक सुरक्षा नीतेः निर्माणम् सांझालिक सुरक्षायाः विषये अनुगमनम् अनुसन्धानम् विकासस्य सांझालिक सुरक्षायाः प्रवर्धनम् जनचेतनाभिवृद्धि सम्बद्धस्य अवधारणापत्रस्य निर्माणम् राष्ट्रिय सूचना प्रविधि केन्द्रस्य पुनर्संरचना चेत्यादीनि कार्याण्यपि विधीयमानानि सन्तीति असूचयत्। न्याय परिषद उपवेशन सर्वोच्च न्यायालयस्य कृते द्वयोः न्यायाधीशयोः नियुक्तये परामृष्टमस्ति। प्रधान न्यायाधीशस्य न्याय परिषद अध्यक्षस्य च विशुम्भर प्रसाद श्रेष्ठस्य अध्यक्षतायां ह्यः उपविष्टेन उपवेशेन पाटनवर्तिनः उच्च न्यायालयस्य मुख्य न्यायाधीशं नृपधोज निरोलाभिधम् तुलसीपुरवर्तिनः उच्च न्यायालयस्य मुख्य न्यायाधीशं नित्यानन्द पाण्डेयं च सर्वोच्च न्यायालयस्य न्यायाधीश पदे नियुक्तुम् परामृष्टम् वर्तते।